सर्वेषां समासचिन्तनवर्गं प्रति पुनः एकवारं स्वागतम्। अत्र अस्माकं प्रवर्तमानः विषयः अस्ति अव्ययीभावसमासः। अव्ययीभावसमासः तस्मिन् प्रसङ्गे वयं किञ्चित् अधीतवन्तः। अव्ययीभावः इति प्रथमं सूत्रमस्ति, तेन विशिष्टसमाससंज्ञा विधीयते। तदनन्तरं दीर्घसूत्रमस्ति, द्वितीयं सूत्रं तस्मिन् अधिकारे एव अस्ति। तत् सूत्रम् अव्ययं विभक्तिसमीपसमृद्धि विरुद्धि अर्थाभाव अत्यय असम्प्रति शब्दप्रादुर्भाव पश्चात् यथा आनुपूर्व्य यौगपद्यसादृश्यसम्पत्तिसाकल्य अन्तवचनेषु इति एकं सूत्रमस्ति। तत् सूत्रमपि वयं ज्ञातवन्तः। तस्मिन् सूत्रे यद्यपि पदद्वयमेव अस्ति, तथापि द्वितीयं पदं समस्तपदमस्ति। तस्मिन् समस्तपदे षोडशपदानि सन्ति, तेषु अर्थेषु विद्यमानम् अव्ययं पदं समर्थेन सुबन्तपदेन समस्यते चेत् अव्ययीभावसमासः भवति इति वयं ज्ञातवन्तः। तस्मिन् सूत्रे प्रथमं पदमस्ति अव्ययम् इति, अपि च विभक्त्यर्थे एकमेव अव्ययपदमस्ति अधि इति अव्ययपदं, सप्तमीविभक्त्यर्थे अस्ति। सप्तमीविभक्तिः इत्युक्ते तत्र विशिष्टतया अधिकरणार्थे अधि इति अव्ययपदस्य प्रयोगः क्रियते। अपि च अत्र समस्तपदे समस्तपदनिर्माणप्रसङ्गे अस्मिन् अवसरे उत्तरपदं कीदृशं पदम् अस्ति इति एकवारं द्रष्टव्यम्। उत्तरपदम् अदन्तमस्ति चेत् तत्र प्रक्रिया भिन्ना भवति, उत्तरपदम् अनदन्तम् अस्ति चेत् प्रक्रिया किञ्चित् भिन्नरूपेण, तत्र किञ्चित् भिन्नकार्याणि भवन्ति। पदम् अनदन्तमस्ति चेत् अदन्तम् अनदन्तं तेषां प्रसङ्गे वयं पूर्वमेव पठितवन्तः। तत्र तपरस्तत्कालस्य इति सूत्रेण तत्र अदन्तम् इत्युक्ते केवलं ह्रस्व अकारान्त अन्तम् अन्तपदम् अस्ति चेत् इति अर्थः। गते सप्ताहे वयम् अनदन्तपद अनदन्त अव्ययीभावसमासयुक्तपदम् अधिहरि इति पदस्य प्रसङ्गे वयं पठितवन्तः। अपि च अन्यानि पदानि अधिबुद्धि, अधिनदि, अधि पितृ, अधि अधिकर्तृ, अधिगु, अधिनु, अधिरि इत्यादीनि पदानि अपि सन्ति। इत्युक्ते एतानि पदानि अनदन्तानि, इत्युक्ते एतेषु पदेषु उत्तरपदम् अनदन्तमस्ति। इत्युक्ते अत्र भानु, अधिभानु इत्यस्मिन् पदे भानु इति पदं, हरि, कर्तृ, पितृ, बुद्धि, नदी एतानि पदानि अजन्तानि किन्तु अदन्तानि न सन्ति। इत्युक्ते एते शब्दाः अनदन्तशब्दाः सन्ति इति कृत्वा तत्र केवलम् एकमेव रूपं तिष्ठति। तत्र न अव्ययीभावादतोऽन्त्वपञ्चम्याः इत्यस्य प्रसक्तिः नास्ति, तृतीया सप्तम्योर्बहुलम् इत्यस्य प्रसक्तिः अपि नास्ति। अपि च अत्र अधि 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 गु इति एकं समस्तपदम् अस्ति, इत्युक्ते गोशब्दस्य गोशब्दः अस्ति, ओकारान्तपदं गो इति पदमस्ति। तत्र रूपाणि गोशब्दस्य रूपाणि वयं जानीमः एव, गौः, गावौ, गावः, गां, गावौ, गाः इत्यादीनि रूपाणि भवन्ति। तथा एव यदि पदम् ओकारान्तपदमस्ति चेत् उत्तरपदम् ओकारान्तपदम् इत्युक्ते अदन्त अजन्तपदमेव किन्तु अदन्तपदं नास्ति। तादृशं पदमस्ति चेत् उत्तरपदं, तस्य ह्रस्वत्वं भवति इति वयं पठितवन्तः। तदर्थम् एकं विशिष्टं सूत्रमपि वयं दृष्टवन्तः, एचः ईघ्रह्स्वादेशे, एचः ईघ्रह्स्वादेशे इति सूत्रेण तत्र ह्रस्वत्वं भवति इति वयं दृष्टवन्तः। तत्र गो इति शब्दात् गु इति रूपम् आयाति, तदर्थमेव तत्र रूपम् अधिगु इति भवति। तथा एव एकम् अन्यत् पदमस्ति ऐकारान्तपदं, रै इति पदमस्ति, पदम् ऐकारान्तमस्ति चेदपि तत्र ई एव तस्य ह्रस्वत्वं भूत्वा ई आयाति, तदर्थं समस्तपदम् अधिरि इति भवति। तथा एव औकारान्तपदम् एकं पदमस्ति, नौ इति प्रातिपदिकमस्ति, तस्य अर्थः तु नौका इति अर्थः। पदम् औकारान्तपदमस्ति चेदपि तत्र तस्य एचः इघ् ह्रस्वादेशे इति सूत्रेण तस्य ह्रस्वत्वं भूत्वा तत्र उ इति आयाति. तेन किं भवति, पदम् अधियोगः नु इति भवति, अधिनु इति भवति. एतावता पदम् ओकारान्तमस्ति चेत्, उत्तरपदम् ओकारान्तमस्ति चेत् तत्र उ आयाति, अपि च ऐकारान्तमस्ति चेत् अपि तस्य ह्रस्वत्वं भूत्वा इ आयाति. तादृशरीत्या एव अधिरि, अधिगु, अधिनु इत्यादीनि पदानि सिद्ध्यन्ति. यदि पदं ऋकारान्तपदमस्ति चेत् अधिपितृ, अधिकर्तृ इत्यादीनि इति समस्तपदं भवति. एतावता वयम् उत्तरपदम् अनदन्तमस्ति चेत् कीदृशानि कार्याणि भवन्ति इति वयं दृष्टवन्तः. यदि उत्तरपदं दीर्घ आकारान्तपदमस्ति चेत् अथवा दीर्घ ईकारान्तपदमस्ति चेत् तदा ह्रस्वो नपुंसके प्रातिपदिकस्य इति सूत्रेण तस्य ह्रस्वत्वं भूत्वा, यदि वयं शाला इति पदं स्वीकुर्मः चेत् तस्य ह्रस्वत्वं भूत्वा शाला इति भवति. तेन समस्तपदम् अधिशालम् इति भवति. एतत् सर्वं वयं गते सप्ताहे एव चर्चितवन्तः. अद्य वयम् अदन्तपदम् उत्तरपदम् अदन्तपदमस्ति चेत् कीदृशानि कार्याणि भवन्ति इति प्रक्रियां दृष्ट्वा वयम् अवगन्तुं प्रयत्नं कुर्मः. किन्तु ततः पूर्वं तत्र अष्टाध्यायीसूत्रपाठः इति पुस्तकात् प्रथमतया सूत्राणि एकवारम् उच्चरामः. अत्र गीतांजलि भगिनी, भवत्याः पार्श्वे पुस्तकमस्ति वा?
आं भगिनी.
तत्र सूत्राणि एकवारं सूत्राणि पठतु एकवारम्.
आं भगिनि. अव्ययी भावः अव्ययं विभक्तिसमीपसमृद्धि व्यर्थि अर्थाभावात्यया असम्प्रति शब्दप्रादुर्भाव पश्चाद् अथानुपूर्व्य यौगपद्य सादृश्यसम्पत्तिसाकल्यान्तवचनेषु यथा सादृश्ये यावदवधारणे सुप्रतिना मात्रार्थे अक्षशलाकासङ्ख्याः परिणा विभाषा अपपरिबहिरञ्चवः पञ्चम्याः आं मर्यादा विभिद्योः लक्षणे नाभिप्रति अभिमुख्ये क्षम्यताम् लक्षणे नाभिप्रति आभिमुख्ये अनुर्यत्समया यस्य चायामः तिष्ठद्गुप्रभृतीनि च पारे मध्ये षष्ठ्या वा संख्या वंश्येन नदीभिश्च अन्यपदार्थे च संज्ञायां तत्पुरुषः. तत्पुरुषः तु न भगिनी, क्षम्यताम्.
उत्तमं भगिनी, सम्यक् सम्यक् एव. इत्युक्ते एतावता अत्र पञ्चदश वा अथवा तादृशसूत्राणि सन्ति. अपि च अहं दृष्टवती, अतः वदामि. अन्तत् यदि वयम् अस्मिन्नेव पुटे पारे मध्ये षष्ट्या वा इति एकं सूत्रमस्ति, तस्य सूत्रस्य प्रसक्तिः अव्ययीभावसमासप्रसङ्गे अस्ति. तत्र एकम् उदाहरणमस्ति, पारे गङ्गम् इति उदाहरणमस्ति. इत्युक्ते पारे गङ्गम् इति समस्तपदमस्ति चेत् तस्मिन् पदे अनेन सूत्रेण अव्ययीभावसमासविधानं भवति. अपि च मध्ये गङ्गम् इति पदमस्ति चेत् तत्रापि अनेन सूत्रेण एव भवति. अपि च एकम् अन्यत् पदमस्ति, सप्तगङ्गं द्वियमुनम् इत्यादीनि पदानि सन्ति. पदं सप्तगङ्गम् इति पदम् द्वियमुनम् इत्यादीनि पदानि सन्ति चेत् तत्र नदीभिश्च, अत्र विंशतितमं सूत्रमस्ति, नदीभिश्च इति सूत्रेण अव्ययीभावसमासविधानं भवति. अपि च द्विमुनिव्याकरणं त्रिमुनिव्याकरणम् इति अस्ति चेत् तत्र सङ्ख्यावंश्येन इति सूत्रेण अव्ययीभावसमासविधानं भवति. अपि च अस्माकं करपत्रे अद्यतनभागे एव एकं पदं दत्तवती भगिनी, उन्मत्तगङ्गम् इति एकं पदम् अस्ति. उन्मत्तगङ्गम् इत्यस्मिन् पदे अव्ययीभावसमासविधानम् अन्यपदार्थे च संज्ञायाम् इति सूत्रेण भवति. अत्र अन्यपदार्थे च संज्ञायाम् इति सूत्रेण भवति. किमर्थमित्युक्ते साधारणतया अव्ययीभावसमासे पूर्वपदार्थप्राधान्यं वर्तते प्रायेण, सर्वत्र इति न, प्रायेण पूर्वपदार्थप्राधान्यं वर्तते. किन्तु अत्र अस्मिन् पदे उन्मत्तगङ्गम् इत्यस्मिन् पदे पूर्वपदार्थप्राधान्यं न दृश्यते, तत्र अन्यपदार्थप्राधान्यं भवति. तत् सर्वम् अद्य एव आयास्यति. तत्र तस्मिन् पदे अन्यपदार्थे च संज्ञायाम् इति सूत्रेण अव्ययीभावसमासविधानं भवति. अधुना वयं करपत्रात् पठेम. अद्यतन नूतनं पदमस्ति अधिगोपम्. अधिगोपम् इति पदम् अत्र उत्तरपदम् अदन्तपदम् अस्ति चेत् कीदृशी प्रक्रिया भवति इति अद्य वयं परिशीलयामः. अधुना अत्र सरस्वती भगिनी भवती आरम्भं करोतु करपत्रात्.
आं भगिनि, तर्हि उत्तरपदम् अदन्तं चेत् इतः वा?
उत्तरपदं
गोपि इति अधिगोपं, गाः पाति इति गोपाः, तस्मिन् इति अधिगोपाः, पा धातुः रक्षणार्थे अस्ति, गोशब्दात् पा धातुतः विच् इति कृत् प्रत्ययः क्रियते चेत् गोपाः इति आकारान्तपुल्लिङ्गशब्दः निष्पन्नः भवति. गो योग पा योग विच् गोपा इति प्रातिपदिकं. सर्वासु विभक्तिषु रूपाणि एवं भवन्ति, गोपाः गोपौ गोपाः, गोपां गोपौ गोपः, गोपा गोपाभ्यां गोपाभिः, गोपे गोपाभ्यां गोपाभ्यः, गोपः गोपाभ्यां गोपाभ्यः, गोपः गोपोः गोपां, गोपी गोपुः गोपासु इति. तर्हि नूतनशब्दः अस्ति गोपी, गो लौकिकविग्रह विग्रह अस्ति गोपी इति अधिगोपं. तर्हि तस्य अर्थः अस्ति यः गाः पाति रक्षणं करोति इति गोपाः, तस्मिन् अर्थे अधिगोपाः. गो गोशब्दात् पा धातुतः विच् विच् कृत् प्रत्ययः यदि योजयामः तर्हि तस्य गोपाः इति आकारान्तपुल्लिङ्गशब्दः भवति. सर्वासु विभक्तिषु रूपाणि अपि अत्र दत्तमस्ति. पुनः पठामि वा सर्वाणि रूपाणि वा अग्रे गच्छामः?
तावदेव. अत्र इतोपि भवती यद् जानाति अस्मिन्नेव प्रसङ्गे विवृणोतु, इतोपि किमपि अस्ति वा अत्र?
चिन्ता
मास्तु.
गोपाः इति अस्ति प्रथमविभक्ति.
अत्र किञ्चित् अस्मिन् प्रसङ्गे किञ्चित् वयम् अवगन्तुं प्रयत्नं कुर्मः. अत्र गाः पाति इति गोपाः इति दत्तमस्ति. अत्र समस्तपदम् अधिगोपं, किन्तु विग्रहवाक्यं गोपी इति. गोपी इति पदम् अत्र गोपा शब्दस्य सप्तमी विभक्ति एकवचनरूपं दत्तमस्ति. वयं जानीमः पा धातुः भिन्नगणेषु अस्ति. भुवादिगणे पा धातुः अस्ति चेत् तत्र पास्थाने पिब आदेशः भवति. तत्र एकं दीर्घं सूत्रम् अस्ति, तेन सूत्रेण पिब आदेशः भवति. तत्र पिबति इति रूपं सिध्यति. किन्तु अत्र पा धातोः अर्थः रक्षणार्थे अस्ति इति कृत्वा पा धातोः रूपं पाति लट्लकाररूपं पाति अस्ति, किन्तु गोशब्दात् गोशब्दस्य रूपाणि वयं जानीमः एव. यदि भवतां पार्श्वे शब्दमञ्जरी पुस्तकमस्ति चेत् तस्मिन् पुस्तके गोशब्दस्य रूपाणि दत्तानि. गौः गावौ गावः, गां गावौ गाः इत्यादीनि रूपाणि सन्ति. गोशब्दात् पा धातुतः विच् इति कृत् प्रत्ययस्य योजनेन गोपा इति प्रातिपदिकं सिद्ध्यति. अत्र वैशिष्ट्यं किम्, अस्य पदस्य वैशिष्ट्यं किम् इत्युक्ते, साधारणतया आकारान्तस्त्रीलिङ्गपदानि वयं जानीमः, लता सीता इत्यादीनि पदानि वयं जानीमः, तानि आकारान्तस्त्रीलिङ्गपदानि. किन्तु एतत् पदम् आकारान्तपुंलिङ्गपदं, किन्तु आकारान्तपुंलिङ्गपदानि सन्ति किन्तु बहु विरलानि इति भाति. अत्र प्रातिपदिकं गोपा अस्ति, किन्तु प्रथमाविभक्त्यां रूपाणि पश्यन्तु, एकवचने अपि बहुवचने अपि गोपाः इति भवति. इति अत्र वैशिष्ट्यमस्ति. अपि च अस्य पदस्य रूपाणि कथं ज्ञातुं शक्नुमः, तत्र अहं दृष्टवती, तदर्थं वदामि. शब्दमञ्जरीपुस्तके एकं पदमस्ति विश्वपा इति पदमस्ति, विश्वपा इति पदमस्ति. तस्य पदस्य रूपाणि एवं रीत्या भवन्ति, इत्युक्ते तत्र विश्वपाः, विश्वपौ, विश्वपाः इत्यादीनि रूपाणि भवन्ति. अत्र गोपाः शब्दवत् अन्यानि पदानि सन्ति वा इति अहम् अन्वेषणं कृतवती. तत्र अहं कानिचन पदानि दृष्टवती. कथम् इत्युक्ते, गोपा सोमपा, सोमं पिबति सोमपा, धूम्रपा, विश्वपा, बलदा. अहं चिन्तयामि एतेषु पदेषु उपपदसमासः अस्ति. अत्र समस्तपदं विश्वपा इत्युक्ते विश्वं पाति, विश्वं रक्षति इति अर्थः. एतादृशेषु पदेषु तत्र क्षम्यताम्, एतानि पदानि आकारान्तपुंलिङ्गपदानि, इत्युक्ते गोपाशब्दवत् इदं पदम् आकारान्त पुंलिङ्गपदं, किञ्चित् विरलमेव. अपि च भगिनी विच् प्रत्ययस्य प्रसङ्गे किञ्चित् उक्तवती. विच् इति एकः कृत् प्रत्ययः, तस्मिन् अयं प्रत्ययः सर्वापहारी प्रत्ययः. पूर्वं वयं पठितवन्तः क्विप् इति एकः प्रत्ययः अस्ति. क्विप् प्रत्यये अपि सर्वापहारलोपः तत्र सर्वेषाम् अनुबन्धवर्णानां लोपानन्तरं तत्र किमपि न अवशिष्यते. अत्रापि तथा एव भवति. चकारः हलन्त्यम् इत्यनेन अपगच्छति, इकारः उच्चारणार्थः, अपि च इकारः अपि अपगच्छति. वकारः अस्ति, वकारः अपि तत्र भगिनी सूत्रम् उक्तवती वेरप्रोक्तस्य इति सूत्रेण. वकारः अप्रुक्त एकाल् प्रत्ययः भूत्वा वकारस्य लोपः अपि भवति. तेन किं वक्तुं शक्नुमः, विच् प्रत्ययः सर्वापहार, तस्मिन् प्रत्यये सर्वापहारलोपः भवति इति अवगन्तुं शक्नुमः. अपि च गोपाः इति शब्दस्य रूपं कथं निर्मितम् इति अस्मिन् परिच्छेदे लिखितमस्ति. अपि च तस्य रूपाणि, सप्तसु विभक्तिषु रूपाणि अपि दत्तानि. उत्तमम्, अग्रे पठतु भगिनि. भवती एव पठतु, अग्रे पठतु.
अधि इति शब्दः सप्तमे विभक्त्यर्थे अधिकरणार्थे प्रयुक्तः अस्ति. अधिशब्दं सप्तम्यर्थस्य बोधकः अस्ति. अलौकिकविग्रहवाक्यं गोपा योगनी योग अधि समाससंज्ञा भवति प्राक् कणारात् समासः इति सूत्रेण. अव्ययीभावः इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति. अव्ययं विभक्तिसमीपसंवृद्धिवृद्धि अर्थाभाव अत्ययसम्प्रति शब्दप्रादुर्भावपश्चात् यथा आनुपूर्व्य यौगपद्यसादृश्यसम्पत्ति साकल्य अन्तवचनेषु इति सूत्रेण अधि इति अव्ययं समर्थेन गोपा इति सुबन्तेन सह समस्यते. एतेन सूत्रेण अव्ययीभावसमासः विधीयते. तर्हि प्रथमं सूत्रमस्ति प्राक् कडारात् समासः. अनेन सूत्रेण समाससंज्ञा भवति. तदनन्तरम् अव्ययीभावः अनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति. तदनन्तरम् अस्माकम् अव्ययीभावस्य विशिष्ट सूत्रमस्ति अव्ययं विभक्ति समीपसमृद्धिवृद्धि अर्थाभाव अत्यय सम्प्रति शब्दप्रादुर्भाव पश्चात् यथा अनुपूर्व यौगपद्य सादृश सम्पत्ति साकल्यान्तवचनेषु. अनेन सूत्रेण अधि इति अव्ययमस्ति. गोपया सह समस्तपदं भवति. अतः अधि इति अव्ययम् अस्ति. अतः अव्ययीभावसमासः समस्तपदः समस्तपद अपि अव्ययं भवति. गोपा योगनी योग अधि.
तावत् भगिनी पर्याप्तं. भगिनी धन्यवादः. अन्ये
धन्यवादः.
धन्यवादः. अनन्तरम् अत्र अरविन्द महोदय भवान् पठतु अग्रे किं दत्तमस्ति.
समासस्य प्रातिपदिकसंज्ञा भवति कृत्तृतिकसमासश्च इत्यनेन सूत्रेण गोपायुगनियोगादि इदानीं सुप्रत्ययस्य लोपा भवति सुपो धातुप्रातिपदिकयोः इत्यनेन. तत्र दत्तमस्ति गोपायुगनियोगादि तस्य प्रातिपदिकसंज्ञा भवति कृत्तृतिकसमासश्च. अत्र सुबन्ध पृष्टमस्ति अति अव्ययमस्ति चेदपि सुबन्धम् एव. गोपा नि सप्तमी सप्तमी अस्ति.
सम्यक् न श्रूयते. गेटिङ्ग् कट्
श्रूयते. हरि ओम्
यदा कदापि भग्नः जातः महोदय. इतोपि स्पष्टतया वक्तव्यम्.
लेट् समबडि रीड्. आई चेंज माय हेडसेट.
चिन्ता मास्तु. अधुना अत्र बालसुब्रह्मण्य महोदय भवान् पठतु.
गोपा योगज्ञी योग आदि समासस्य प्रातिपदिकसंज्ञा भवति कृतद्विधसमासाश्च इति अनेन सूत्रेण. अनन्तरं गोपायोगज्ञे योग अधि इदानीं सुप्रत्ययस्य लुक् लोपः भवति सुपो धातुप्रातिपदिकयोः इति अनेन.
तावत् प्रतिपादयतु महोदय.
सो प्रथम गोपायोगज्ञे इति सुबन्तप्रत्ययः योग अधि इति अव्ययप्रत्ययः समासस्य प्रातिपदिकसंज्ञा भवति कृतसमासश्च इति सूत्रेण. अनन्तरं सुपो धातुप्रातिपदिकयोः इति सूत्रेण सुप्रत्ययस्य लुक् भवति. अत्र सुप्रत्ययः ङि तस्मात् तस्य लुप् लोप भवति अवशिष्ट गोपा योग अति अधि इति रूपम्.
अत्र किञ्चित् अस्माभिः किञ्चित् एकः विषयः स्मर्तव्यः. कृत्तद्धितसमासाश्च इति सूत्रस्य प्रसङ्गे वयं पूर्वमेव पठितवन्तः. किन्तु अत्र एकः विषयः अस्ति. तत् किम् इत्युक्ते साधारणतया व्युत्पन्नशब्दानां प्रातिपदिकसंज्ञा एव कृत्तद्धितसमासाश्च सूत्रेण भवति. इत्युक्ते अत्र कृदन्तपदानि तद्धितान्तपदानि समासाः एतेषां पदानां प्रातिपदिकसंज्ञा कृत्तद्धितसमासाश्च इति सूत्रेण भवति. इत्युक्ते व्युत्पन्नशब्दानां प्रातिपदिकसंज्ञा अनेन सूत्रेण भवति. किन्तु एकम् अन्यत् सूत्रमस्ति तेनापि प्रातिपदिकसंज्ञा विधीयते. तत्र अर्धवत् अधातुरप्रत्ययः इति एकं सूत्रमस्ति. तेन सूत्रेण अपि प्रातिपदिकसंज्ञा विधीयते. किन्तु कीदृशशब्दानां प्रातिपदिकसंज्ञा अव्युत्पन्नशब्दानां प्रातिपदिकसंज्ञा तेन सूत्रेण दीयते किन्तु व्युत्पन्नशब्दानां प्रातिपदिकसंज्ञा अनेन सूत्रेण दीयते इति अत्र अवगन्तव्यम्। अपि च सम्पूर्णशब्दसमुदायस्य प्रातिपदिकसंज्ञा अस्ति इति कृत्वा सुपोधातुप्रातिपदिकयोः इत्युक्ते एतत् सर्वं शब्दसमुदायः प्रातिपदिकम् अस्ति इति कृत्वा तस्मात् सुप्रत्ययस्य लोपः भवति। अत्र गोपाशब्दात् गोपी इति वदामश्चेत् सप्तमीविभक्ति एकवचनं प्रत्ययः तत्र अस्ति, णी प्रत्ययः अस्ति, तत्र णी प्रत्ययस्य लोपः भवति। किन्तु अधिशब्दस्य प्रसङ्गे किं भवति, अत्र अधिशब्दस्य अनन्तरं तत्र सुप्रत्ययः अस्ति वा नास्ति वा, तत्र अधिशब्दस्य प्रसङ्गे अपि ज्ञातव्यम्। अग्रे पठतु महोदय।
गोपा योग णी योग अधि इत्यस्मिन् णी इत्यस्य लुक् भवति, तस्मात् गोपा योग अधि इति रूपं सुप्तिङन्तं पदम् इत्यनेन यस्य अन्ते सुप्रत्ययः अस्ति तस्य पदसंज्ञा भवति। यत्कोपि सुप्तिङ् अन्ते अस्ति चेत् तत् पदस्य संज्ञा भवति इति। अत्र च अधि इत्यस्य अन्ते सुप् न दृश्यते, तर्हि प्रश्नः उदेति यत् तस्य पदसंज्ञा अस्ति न वा इति। उत्तरमस्ति यत् प्रत्ययलक्षणम् इत्यनेन पदसंज्ञा अस्ति एव। अव्ययात् परस्य सुप्रत्ययानां च लुक् भवति, अव्ययात् आप् सुपः इति सूत्रेण। अतः अधि इति अव्ययस्य परस्य सुप्रत्ययस्य लोपः अतः जातः। यद्यपि प्रत्ययस्य लोपः जातः तथापि प्रत्ययस्य लक्षणं तिष्ठति इत्यस्य इत्यतः पदसंज्ञा अस्ति एव। सो सुप्तिङन्न पदम् इति सूत्रेण सुभन्त अथवा तिङन्तपदम् अन्ते अस्ति चेत् पदस्य संज्ञा भवति। अत्र सुप् इति लोपः आसीत्, तस्मात् अन्ते अधि इति अव्ययपदमेव अस्ति, तस्मात् पदसंज्ञा अत्र नास्ति। यतोहि सुबन्तः नास्ति इति कारणात् पदसंज्ञा नास्ति। परन्तु
महोदय अत्र अत्र किञ्चित् इतोपि किञ्चित् स्पष्टतया अवगन्तव्यं विषयः कः इति, इतोपि स्पष्टता आवश्यकी। अत्र सुप्तिङन्तं पदम् इति एकं सूत्रमस्ति, तत् सूत्रं किं वदति, यस्य पदस्य अन्ते सुप्रत्ययः अस्ति तत् सुबन्तं, यस्य पदस्य अन्ते तिङ्प्रत्ययः अस्ति तत् तिङ्गन्तम् इति वदति। अत्र गोपा गोपी इति पदमस्ति, गोपी इति पदे तत्र गोपायोगः णि इति सप्तमीविभक्ति एकवचनप्रत्ययः अस्ति, अपि च सुपोधातुप्रातिपदिकयोः इत्यनेन णि प्रत्ययस्य लोपः अपि अभवत्। किन्तु अत्र अस्मिन् परिच्छेदे अधिशब्दस्य प्रसङ्गे उक्तमस्ति, अधि इति पदम् अव्ययपदम् इति वयं जानीमः एव। इत्युक्ते सप्तमीविभक्त्यर्थे अधिशब्दस्य अधि इति अव्ययशब्दस्य प्रयोगः अभवत् अत्र। अधिशब्दं शब्दः अव्ययपदम् अस्ति, तत्र अधिशब्दप्रसङ्गे कीदृशं कार्यं भवति इति चिन्तयामश्चेत्, साधारणतया अव्ययपदमस्ति चेत् अव्ययात् आप्सुपः इति सूत्रेण अव्ययपदस्य अन्ते स्थितस्य सुप्रत्ययस्य लोपः अव्ययात् आप्सुपः इति सूत्रेण पूर्वमेव तस्मात् पदात् सुप्रत्ययस्य लोपः अभवत्, तत् कार्यं पूर्वमेव अभवत्। अव्ययात् आप्सुपः इति सूत्रेण अन्ते स्थितस्य सुप्रत्ययस्य लोपः पूर्वमेव अभवत्। अधुना प्रश्नः उदेति अधि इति पदं सुबन्तं सुबन्तपदं तस्य पदसंज्ञा अस्ति वा, पदम् इति वक्तुं शक्नुमः वा, तस्य पदसंज्ञा अस्ति वा इति प्रश्नः उदेति। तस्य उत्तरं किम् इत्युक्ते प्रत्ययलोपे प्रत्ययलक्षणम् इति एकं सूत्रमस्ति, तेन यद्यपि प्रत्ययं लोपः अभव प्रत्ययस्य लोपः अभवत् तथापि अधि इत्यस्मिन् पद तस्य लक्षणं तत्र प्रत्ययलक्षणं तिष्ठति इति कृत्वा अधि इति पदं सुबन्तमेव इति निर्णेतुं शक्नुमः. इत्युक्ते अत्र सुप्तिङन्तं पदम् इति सूत्रेण अधि इति पदमपि सुबन्तमेव इति वयं अवगन्तुं शक्नुमः इति विषयः.
एकः प्रश्नः भगिनी विनयकुमार प्रश्नः अस्ति. प्रत्यलोपे प्रत्यलक्षणम् एकः विषयः अहं अवगच्छामि, परन्तु अधि विषय सम्यक् अर्थ प्रायशः अन्य अस्ति. अधि अधिकरणकारकसम्बन्धे विवक्षितः अधि सन्दर्भे यदि अधि विभक्तिसमान मतिसमान प्रातिपदिक शब्द अभिष्यत् तर्हि अध्यां वा अधौ निष्पन्नः. अत्र अधि अधिकरण आधारेण मत्वा अतः विषयद्वयम् अधि अधिकरणकारकसम्बन्धे विवक्षितः प्रत्यलक्षणं प्रत्यलोपे प्रत्यलक्षणं द्वितीयविषयः.
आं महोदय, अत्र प्रश्नः अस्ति वा भवतः प्रश्नः कः?
अहं केवलं वदामि अहं केवलं वदामि.
अस्तु, अत्र एतावता अत्र अधि इति शब्दः अधिकरणार्थे सप्तमीविभक्त्यर्थे अधिकरणार्थे एव अस्य अव्ययस्य प्रयोगः कृतः अस्मिन् परिच्छेदे. अपि च अत्र एतावता अस्मिन् परिच्छेदे किं दत्तमस्ति, अधि इति अव्ययपदम् अस्ति, तस्यापि पदसंज्ञा अस्ति एव. किन्तु तस्य पदात् तस्मात् पदात् अन्ते स्थितस्य सुप्रत्ययस्य लोपः अभवत्, प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन तत्र प्रत्ययलक्षणं तिष्ठति इति अवगन्तव्यम् इति विषयः. उत्तमम्. अनन्तरं वदतु
महोदय, मम चिन्तनमासीत् अत्र अधि अन्ते अस्ति इति कारणात् पदस्य संज्ञा नास्ति, परन्तु पूर्वं सुबन्तः आसीत्.
न महोदय, अत्र कथं किमर्थं भगिनी एतादृशरीत्या लिखितवती इत्युक्ते अग्रे अग्रिमे सोपाने प्रथमानिर्दिष्टं समास उपसर्जनम् इति उपसर्जनसंज्ञासूत्रेण कीदृशं कार्यं भवति इति अवगन्तुम् ईदृशरीत्या भगिनी लिखितवती. किन्तु अत्र अधिशब्दस्य प्रसङ्गे अधि इत्यस्य पदसंज्ञा अस्ति वा इति प्रश्नस्य उत्तरं मिलति अस्मिन् परिच्छेदे. इत्युक्ते तस्य तस्मात् अव्ययात् आप् सुपः इति सूत्रेण सुपः लुक् आल्रेडि अभवत्, पूर्वमेव अभवत्. अग्रिमे परिच्छेदे तत्र अधि इति पदमेव केवलं पदमेव पूर्वपदं किमर्थं भवति इति प्रश्नस्य उत्तरं मिलति अग्रिमे परिच्छेदे. तावदेव. अनन्तरम् अत्र सरला भगिनी भवती पठतु.
अस्तु भगिनि. गोपायोग अधि अत्र प्रथमनिर्दिष्टं समास उपसर्जनम् इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति. अत्र अव्ययं विभक्ति समीप समृद्धि व्यर्थि अर्थाभाव अत्यय सम्प्रति शब्दप्रादुर्भाव पश्चात् यथा आनुपूर्व्य योग्यपद्य सादृश्यसम्पत्ति साकल्य अन्तवचनेषु इति समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण. अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य उपसर्जनसंज्ञा भवति. अधुना उपसर्जनं पूर्वम् इति सूत्रेण उपसर्जनसंज्ञकपदस्य पूर्वनिपातः भवति. अत्र अधि इति अव्ययं तस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति. इदानीं गोपा योग अधि पद पदसंज्ञा आप्नोति द्वे पदे. इदानीं प्रथमनिर्दिष्टं समासोपसर्जनम् इति सूत्रेण निर्णयं भवति कस्य पदस्य उपसर्जनसंज्ञा भवति कथं भवति. यत् विशिष्टसूत्रं वयं जानीमः अव्ययं विभक्तिसमीप इति सूत्रेण अव्ययम् पदं प्रथमाविभक्तौ निर्दिष्टम् अस्ति. अत्र अव्ययपदस्य उपसर्जनसंज्ञा भवति प्रथमानिर्दिष्टसमास उपसर्जन इति सूत्रेण. यदि उपसर्जनसंज्ञा भवति तदा अन्यसूत्रम् उपसर्जनं पूर्वम् इति सूत्रम् आगत्य निर्दिष्ट अस्ति उपसर्जनसंज्ञक वर्णस्य पूर्वनिपातः भवति. इदानीं गोपायोग अधि यदि अस्ति अधि इत्यस्य उपसर्जनसंज्ञा भवति उपसर्जनसंज्ञा भूत्वा कारणके प्रथमा निर्दिष्टम् इति सूत्रेण अधि पूर्वनिपात आगच्छति. अधि योग गोपा इति समर्थं समस्तपदम् अस्ति तस्य उत्तरपदं भवति.
उत्तमम्
इति निर्दिष्टं भवति कस्य पदस्य पूर्वनिपातः भवति कस्य पदस्य उत्तरं पदम् आगच्छति समस्तपदे.
उत्तमम् इत्युक्ते समस्तपदे किं पदं पूर्वं भवेत् इत्यस्य निर्णयं कर्तुम् अस्य सूत्रद्वयस्य प्रसक्तिः अस्ति. प्रथमानिर्दिष्टं समास उपसर्जनम् उपसर्जनं पूर्वम् अत्र अव्ययं तत्र तस्मिन् दीर्घसूत्रे अव्ययम् इति पदं प्रथमाविभक्त्यन्तं पदमस्ति इति कृत्वा तत्र प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण विधायकसूत्रे यत् पदं प्रथमाविभक्त्यां निर्दिष्टम् अस्ति तस्य उपसर्जनसंज्ञा भवति. इत्युक्ते अत्र गोपा अधि इति पदमेव अत्र अव्ययपदमस्ति इति कृत्वा अत्र अधिशब्दस्य पूर्वप्रयोगः भवति अत्र एताभ्यां सूत्राभ्यां द्वाभ्यां प्रथमानिर्दिष्टं समास उपसर्जनम् उपसर्जनं पूर्वम् इत्यनेन पूर्वपदस्य निर्णयं कर्तुं शक्नुमः. उत्तमम्. अग्रिमपरिच्छेदे किम् अस्ति पठतु भगिनि.
अधि योग गोपा अव्यवीभावश्च इत्यनेन अव्यवीभावसमासेन निर्मितस्य शब्दस्य अव्यय इति संज्ञा भवति. अधि गोपा इत्यस्य अव्ययसंज्ञा भवति. यदा वयम् इदानीं निर्णयं कृतवन्तः कस्य पदस्य पूर्वनिपातः अस्ति अधियोग गोपा समस्तपदनिर्माणस्य निर्माणं कृते. इदानीम् अव्ययीभावश्च प्रथम अध्यायस्य प्रथमपादे एकचतुर्विंशति सूत्रेण अव्ययसंज्ञा इति आप्नोति इति सूत्रेण. तदनन्तरम् अव्ययीभावश्च द्वितीयपादे द्वितीय अध्यायस्य चतुर्थपादे अष्टादशसूत्रम् आगत्य तस्य लिङ्गं निर्दिष्टं करोति. सो अधि गोपा पठामि भगिनि.
पठतु अग्रे पठतु.
अधि गोपा इदानीं लिङ्गस्य निर्णयं क्रियते अव्ययीभावश्च द्वितीय अध्यायस्य चतुर्थपादे अष्टादशसूत्रम् इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम्. अतः अधि गोपा इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम्. इदानीं अव्ययसंज्ञा प्राप्य तदनन्तरं लिङ्गस्य निर्णयं कथं क्रियते. पुनः अव्ययीभावस्य सूत्रस्य नाम एकसमानः अस्ति किन्तु तस्य कार्यं विभिन्नम् अस्ति. द्वितीयपादे निर्दिष्टम् अस्ति इति सूत्रम् अव्ययीभावस्य नपुंसकलिङ्गम् इति निर्दिश्यति. इदानीं समस्तपद्यस्य लिङ्गं भवति नपुंसकलिङ्गम् अधि गोपा.
उत्तमम्. इत्युक्ते अनेन सूत्रेण तत्र नपुंसक अव्ययीभावसमासस्य नपुंसकलिङ्गं भवति. नपुंसकलिङ्गं भवति चेदेव कानिचन अन्यानि कार्याणि भवितुम् अर्हन्ति. यथा ह्रस्वो नपुंसके प्रातिपदिकस्य इति सूत्रस्य कार्य तस्य विधानं भवितुं तत्र अव्ययीभावसमासः अव्ययपदं भवेत् तदानीमेव अस्य सूत्रस्य प्रसक्तिः भवति इति विषयः. तदर्थमेव इत्युक्ते नपुंसकलिङ्गम् आधारीकृत्य कानिचन कार्याणि भवन्ति इति कृत्वा द्वितीयाध्याये यत् सूत्रमस्ति तेन नपुंसकलिङ्गत्वं प्राप्नोति अव्ययीभावसमासं समासयुक्तं पदम्. उत्तमं, धन्यवादः भगिनि. सुमन् भगिनि भवती पठतु, अग्रे पठतु सुमन् भगिनि.
क्षम्यतां भगिनि, म्यूट् मध्ये आसम्. इदानीं तु ह्रस्वनपुंसकलिङ्गे खलु,
ह्रस्वनपुंसके
अधि, इदानीं तु अधिगोपा अस्ति. इदानीं ह्रस्वनपुंसकलिङ्गे प्रातिपदिकस्य इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य ह्रस्व भवति, अतः अधिगोप इति भवति. अस्तु, इदानीं तु अधिगोपा अस्ति. इदानीं तु अधिगोपा अव्ययीभावसमासः अस्ति. अव्ययीभावसमासः इत्युक्ते तत्र नपुंसकलिङ्गः भवति, अतः इदा ह्रस्वो नपुंसकलिङ्गे प्रातिपदिकस्य इति सूत्रस्य प्रसक्तिः अस्ति. नपुंसक विषये तत्र अधिगोपा अस्ति चेत् प्रातिपदिकं लघु भवति, अधिगोप इति भवति. इदानीं समासस्य रूपं भवति अधिगोप.
उत्तरपदं इत्युक्ते अव्ययीभावसमासः नपुंसकलिङ्गमस्ति इति कृत्वा अस्य सूत्रस्य प्रसक्तिः अस्ति. इत्युक्ते एतावता भगिन्या किमुक्तम् इत्युक्ते साधारणतया अत्र तु उत्तरपदं दीर्घ आकारः दृश्यते, किन्तु केषुचित् स्थलेषु यद्यपि तस्य तत्र दीर्घत्वं नास्ति चेदपि अस्य सूत्रस्य प्रसक्तिः अपि च प्राप्तिः भवति, किन्तु परिवर्तनं न दृश्यते इति उक्तमस्ति. यथा
अधि नदी अस्ति चेत् अधि नदी भवति, किन्तु अधि हरि अस्ति चेत् अधि हरि एव तिष्ठति, किन्तु सूत्रं कार्यं करोति.
उत्तमम्. किन्तु अत्र तु परिवर्तनं दृश्यते, किन्तु कुत्रचित् किन्तु सूत्रस्य प्रसक्तिः अपि च प्राप्तिः सर्वत्र भवति, किन्तु कुत्रचित् तत्र परिवर्तनं दृश्यते अत्र.
कुत्रचित् परिवर्तनं न दृश्यते.
उत्तमम्. अग्रे पठतु.
अस्तु, इदानीम् अधिगोप अस्ति. अधिगोप योग सु अधिगोप इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति. अधुना सुप्रत्ययस्य उत्पत्तिः भवति. तत्र सूत्रम् अस्ति, दीर्घसूत्रम् अस्ति. पदच्छेदं कुर्मः चेत् तत्र स्वौ जस्मौ जस् समौट् अस्ति. सु औ जस् अम् औ औट् तत्र इत्यादयः अस्ति. तेन सूत्रेण इदानीं सुप्रत्यय आगच्छति इति अस्ति करपत्रम्.
उत्तमम्. इत्युक्ते एतावता अत्र अधिगोपा इति तस्य प्रातिपदिकसंज्ञा अस्ति इति कृत्वा अत्र ज्ञाप्रातिपदिकात् इति सूत्रं स्मर्तव्यं. ज्ञाप्रातिपदिकात् अपि च स्वौजसमौट् अत्र दीर्घसूत्रेण एताभ्यां सूत्राभ्यां प्रातिपदिकस्य अन्ते पुनः सुप्रत्ययस्य विधानं भवति. ज्ञाप्रातिपदिकात् ज्ञाप्रातिपदिकात् इति सूत्रमस्ति, अपि च स्वौजसमौट् इति अत्र एव दत्तमस्ति दीर्घं सूत्रम्. एताभ्यां द्वाभ्यां सूत्राभ्यां प्रातिपदिकात् एव सुप्रत्ययस्य विधानं भवति अथवा सुप्रत्ययस्य योजनं भवति. किमर्थमित्युक्ते तत्र प्रातिपदिकस्य उपयोगः वाक्ये न भवितुमर्हति. इत्युक्ते प्रातिपदिकम् उपयुज्य वा वाक्ये तस्य प्रयोगं कर्तुं न शक्नुमः. प्रातिपदिकस्य अन्ते सुबुत्पत्तिः भवति चेदेव तस्य प्रयोग तत्पदं प्रयोगार्हं वाक्ये योजयित्वा तस्य प्रयोगं कर्तुम् अर्हः भवति सः शब्दः. तदर्थमेव अन्ततो गत्वा पुनः एकवारं सुप्रत्ययानां विधानं भवति. अत्र प्रथमाविभक्ति एकवचनप्रत्ययः सुप्रत्ययं योजयामः. उत्तमं भगिनी, अग्रे किमस्ति, पठतु.
अस्तु, इदानीं न्या प्रातिपदिकस्य तत्तु कार्यं न करोति.
अत्र न्याप्रातिपदिकात् इति किमर्थम् उक्तवती इत्युक्ते तत्र न्याप्रातिपदिकात् इति अधिकारसूत्रमस्ति, तत्र प्रातिपदिकात् एव सुपः विधानं भवति इति तत् सूत्रं वदति. वयं पूर्वमपि पठितवन्तः.
इदानीम् अधिगोपयोगसु अस्ति. अत्र अव्ययात् अव्ययात् आप् सुपः इति सूत्रेण प्राप्यमानः सुप् लोकः व्ययी भावात् किं भवति न अव्ययी भावात् अतो अम् त्वपञ्चम्याः इति सूत्रेण निषिध्यते. अस्तु, इदानीं तु अधिगोप योगसु अस्ति. अत्र तत्र सु न आदेशः भवति, किन्तु अम् आदेशः भवति. किन्तु पञ्चमविभक्तौ न भवति. तत्र अम् आदेश इदानीं तु अधिगोप न भवति, अधिगोपं भवति. किन्तु सर्वत्र भवति पञ्चमी विभक्ति विहाय.
उत्तमम्. अत्र एतावता अधिगोप इति पदम् अदन्तमस्ति. अदन्तमस्ति इति कृत्वा अत्र भिन्नकार्याणि भवन्ति. अत्र किं लिखितमस्ति, यदि पदम् अदन्तं नास्ति चेत् अव्ययात् आप्सुपः इति सूत्रेण सुब्लुक् भवति. किन्तु अत्र पदम् अदन्तमस्ति इति कृत्वा न अव्ययीभावाद् अतोन्त्वपञ्चम्याः इति सूत्रेण अव्ययात् आप्सुपः इति सूत्रेण यत् कार्यं भवति तत् कार्यम् अनेन सूत्रेण निषिध्यते. अनन्तरम् अत्र
इदानीं तु सुप् लुक् न भवति, किन्तु नाव्यभावात् अम् त्वपञ्चम्याः तत् तेन सूत्रेण सुप् लुक् न भवति, किन्तु अम् आदेश भवति पञ्चमी विभक्त्यौ विभक्तौ विहाय. अनन्तरं
भगिनि, अत्र नाव्ययीभावाद् अतोन्त्वपञ्चम्याः इति सूत्रस्य प्रसङ्गे किञ्चित् पठतु. अधोभागे दत्तमस्ति.
अस्तु, नाव्ययीभावात् अतो अतो अम् त्व अम् त्वपञ्चम्याः अदन्तात् अव्ययीभावात् सुप् प्रत्ययस्य लुक् न भवति, अपि तु पञ्चमी विभक्तिं विहाय अन्यासु विभक्तिषु सुप्रत्ययस्य स्थाने अम् आदेशः विधीयते. अस्मिन् सूत्रे निषेधः इति भागः अपि अस्ति, येन सुपः लुक् निषिध्यते. विधिः इति भागः अपि अस्ति, येन अम् आदेश विधीयते, परन्तु पञ्चमी विहाय. न अव्ययपदम् अव्ययीभावात् पञ्चम्यन्तम् अतः पञ्चम्यन्तम् अम् प्रथमान्तं तु अव्ययपदम् अपञ्चम्याः षष्ट्यन्तम् अनेकपदमिदं सूत्रम्. अव्ययात् आप्सुपः इत्यस्मात् सूत्रात् सुपः इत्यस्य अनुवृत्तिः भगिनी उच्चारणक्लेशः ण्यक्षत्रियाशन्तो यूनि लुगान्योः इत्यस्मात् सूत्रात् लुक् इत्यस्य अनुवृत्तिः सहितसूत्रम् अतः अव्ययीभावात् तु न सुपः लुक् अपञ्चम्याः अस्तु एतत् सूत्रं तु बहवः कार्याणि करोति प्रथमं तु सुप् लुक् निषेधं करोति अतः इदानीं निषेधसूत्रम् इति वक्तुं शक्यते अपि च विधिः अपि कार्यमपि करोति अतः विधिसूत्रम् अपि वक्तुं शक्यते तत् कार्यं तु अस्ति अदन्त अङ्गम् अस्ति चेत् तत्र अम् आदेशः भवति किन्तु पञ्चमी विभक्तिं विहाय प्रथमं कार्यं लुक् निषेधं द्वितीय अतः निषेधसूत्रं द्वितीय अम् आदेशः तृतीय पञ्चमी विभक्तिं विहाय सर्वत्र अम् आदेशः भवति
उत्तमम् उत्तमं भगिनि अत्र अनुवृत्तिसहितसूत्रं पश्यामश्चेत् अतः अव्ययीभावात् अतः इत्युक्ते ह्रस्व अकारान्त अव्ययीभाव समस्तपदात् किं भवति सुपः लुक् न भवति न सुप्लुक् सुपः लुक् तेन किं भवति अम् इति प्रथमान्तमस्ति इति कृत्वा अम् आदेशः भवति अपञ्चम्याः अपञ्चम्याः इत्युक्ते पञ्चमी विभक्तिं विहाय यद्यपि अस्मिन् सूत्रे लुक् इति पदं न दृश्यते किन्तु अत्र लुगनिन्योः इति लिखितमस्ति तत्र लुक् इति पदं पूर्वसूत्रात् अस्मिन् सूत्रे अनुवृत्तिरूपेण आयाति ण्यक्षत्रियार्षणितो यूनि लुगणिन्योः इति सूत्रात् तत्र लुक् इति पदस्य अनुवृत्तिः भवति अपि च पदम् अदन्तपदं भवेत् इति अत्र मुख्यविषयः यथा भगिन्या उक्तम् अस्मिन् सूत्रे भागद्वयमस्ति विधिभागः निषेधभागः इति भागद्वयं धन्यवादः भगिनी अनन्तरम् अत्र विनयमहोदय उपरितनभागे धन्यवादः अत्र उपरितनभागे अग्रिमसोपानं पठतु तृतीया सप्तम्योर् बहुलं पठतु अधिगोपा प्लस् अम् अत्र अमिपूर्वः
अधिगोप योग अम् अत्र अमिपूर्वः इत्यनेन अक् वर्णात् अम् प्रत्यये परे पूर्वपरयोः स्थाने एकः पूर्वरूप आदेशः पूर्वरूपसन्धिः अस्ति पञ्चमी विभक्ति विहाय अपरासु विभक्तिषु अधिगोपम् इति रूपं सिद्धं भवति तृतीयसप्तम्योः बहुलम् इति सूत्रेण अदन्ताव्ययीभावात् परे तृतीयसप्तम्योः च स्थाने विकल्पेन अमादेशः भवति अनेन तृतीया विभक्तौ अपि च सप्तमी विभक्तौ रूपद्वयं सम्भवति अधिगोपे अन्यसु विभक्तिषु अधिगोपम् इति रूपं सिद्धम् भवति अहं यदि वक्तुं कर्तुं शक्नोमि अतः तृतीया अपि च सप्तमी विभक्तिः बहुलं विकल्पेन अमादेशा भवति तत्र अपि तत्र अतः अधिगोपं भवति तृतीया अधिगोपं भवति सप्तमी सप्तमी च परन्तु विकल्पेन अधिगोपेन अधिगोपे अपि भवति तृतीया अपि च सप्तमी विभक्ति सम्बन्धे
आं महोदय सम्यक् इत्युक्ते अत्र तृतीया सप्तम्योर्बहुलम् इति सूत्रेण अदन्तव्ययीभावसमासे तृतीयाविभक्त्यां सप्तमीविभक्त्यां विकल्पेन अमादेशः भवति तेन रूपद्वयं सिध्यति तृतीयाविभक्त्याम् अधिगोपम् अधिगोपेन सप्तमीविभक्त्याम् अधिगोपम् अधिगोपे इति रूपद्वयं सिध्यति अत्र एकम् अन्यत् सूत्रमपि उक्तमस्ति अमिपूर्वः इति सूत्रमस्ति तत् सूत्रं वर्णनिमित्तिकं कार्यं करोति इत्युक्ते सन्धिकार्यं करोति अमिपूर्वः इति सूत्रेण तत्र पूर्वरूपादेशः भवति अमिपूर्वः इति सूत्रस्य प्रसङ्गे वयं पठितवन्तः अत्र अधिगोपा प्लस् अम् इति वदामश्चेत् अत्र सवर्णदीर्घसन्धिः भवति स्म भवितुम् अर्हति किन्तु न भवति अत्र सवर्णदीर्घसन्धिं प्रबाध्य अमिपूर्वः इति सूत्रेण पूर्वरूपादेशः भवति अत्र अमिपूर्वः इति सन्धिसूत्रमस्ति अपि च अत्र तृतीया सप्तम्योर्बहुलम् इति सूत्रेण विकल्पेन रूपद्वयं सिध्यति अपि च अत्र बहुलम् इति पदम् उक्तमस्ति सूत्रे किमर्थं बहुलम् इति पदं दत्तमस्ति तस्मिन् प्रसङ्गे अस्माभिः किञ्चित् ज्ञातव्यं धन्यवादः महोदय श्रीराम महोदय भवान् पठतु तृतीया सप्तम्योर्बहुलम् इति सूत्रात् आरभ्य अधोभागे
तृतीयसप्तम्योर्बहुलम् अधोभागे एव खलु तृतीयसप्तम्योर्बहुलम् अदन्तात् अग्रेभावात् परे तृतीयसप्तम्योच्च स्थाने बहुलम् अमादेशः भवति अत्र बहुलम् इति शब्दस्य प्रयोगेन कुत्रचित् विकल्पेन अमादेशः भवति कुत्रचित् अमादेशे नित्यः भवति यदि विकल्पार्थः इष्टः तर्हि विकल्पः अथवा वा इति शब्दस्य प्रयोगः भवति परन्तु अत्र बहुलम् इत्यनेन विशिष्टार्थः बुध्यते तृतीया च सप्तमी च तयोरितरेतरद्वन्द्वतृतीयासप्तम्यौ तयोः तृतीयासप्तम्योः षष्ट्यन्तम् बहुलं प्रथमान्तं द्विपदमिदं सूत्रं नवेभावाद् तोम्यपञ्चम्याः इति स्मात् सूत्रात् अवीभावात् अतः च अम् इत्येषाम् अनुवृत्तिः भवति अनुवृत्तिसहितसूत्रं तृतीयासप्तम्योः अवीभावात् अस् अम् बहुलम् इति अस्ति अत्र अदन्त अङ्गमस्ति चेत् अदन्त अव्ययीभावात् अदन्तात् अव्ययीभावात् तृतीयसप्तमी विभक्तियोः किं भवति इत्युक्ते तत्र अम्मादेशः विकल्पेन भवति अम्मा आदेशेन न भवति चेत् तत्र विभक्तिप्रत्यये एव तिष्ठति इदानीं बहुलम् इति पदं सूत्रे अस्ति इत्युक्ते बहुलम् अमादेशः भवति अमादेशः बहुलं भवति अत्र बहुलम् इति शब्दस्य प्रयोगः कुत्रचित् विकल्पेन इति वदामः अथवा पा इति शब्दप्रयोगः भवति, विकल्पेन इति शब्दप्रयोगः भवति, अथवा वा इति शब्दप्रयोगः भवति सूचनार्थम्। अत्र तु बहुलम् इति पदं पाणिनिना उपयुज्यते। अम्मादेश इत्युक्ते तत्र कुत्रचित् अम्मादेशः भवति, कुत्रचित् अम्मादेशः नित्यः भवति, अम्मादेशः नित्यः भवति, कुत्रचित् अम्मादेशः विकल्पः इत्यर्थः। किञ्चित् भिन्नम् अस्ति सर्व इत्युक्ते विकल्पेन इति वदामः खलु, वदामश्चेत् तदा तस्य द्वयं भवति, विकल्परूपं चाय्स् इति वदामः। अत्र कुत्रचित् अस्माकं तादृश चाय्स् नास्ति, नित्यः एव भवति, विकल्परूपं न भवति इति कारणेन भिन्नपदप्रयोगं कृतवान् पाणिनिमहर्षिः। अत्र सूत्रस्य अतः तृतीयासप्तम्योः अभिभवत्, अतः अम् बहुलम् इति अस्ति। तृतीयासप्तमी विभक्तौ तृतीयासप्तमी विभक्त्योः अभिभवात् अतः अदन्तात् तत्र अम्मादेशः कुत्रचित् विकल्पेन भवति, कुत्रचित् तत्र नित्यः अस्ति इति अर्थः।
उत्तमं, सम्यक् महोदय, सम्यक् प्रतिपादितवान्। अत्र केवलं सूत्रे विकल्पेन इति वक्तुमिच्छति चेत् पाणिनिः केवलं वा इति पदं वा विभाषा इति पदं वा किमपि अन्यत् पदम् उपयुज्य सूत्रं लेखितुं शक्तवान्, किन्तु अत्र बहुलम् इति पदम् इति कथनेन, बहुलम् इति कथनेन अत्र भिन्न अर्थः अस्ति इति अस्माभिः अवगन्तव्यं। केवलं विकल्पार्थः इष्टः चेत् विकल्पः वा इति शब्दस्य प्रयोगः भवति, किन्तु अत्र बहुलम् इति लिखितमस्ति, किमर्थम् इति अग्रिमे परिच्छेदे अपि इतोपि किञ्चित् स्पष्टतया लिखितमस्ति, उदाहरणमपि दत्तवती। इत्युक्ते अत्र तृतीयासप्तम्योर्बहुलम् इति सूत्रेण कुत्र नित्यरूपेण अमादेशः भवति, कुत्र विकल्पेन अमादेशः भवति इति अवगन्तुम् अग्रिमं परिच्छेदं पठेम। भवानेव पठतु अग्रिमं परिच्छेदम्।
बहुलम् अपि विकल्पेन अनयोः शब्दयोः भेदः वर्तते। बहुलम् इत्यनेन क्वचित् प्रवृत्तिः, क्वचित् अप्रवृत्तिः, क्वचित् विभाषा, क्वचित् अन्यदेव। अवेभावसमासस्य सन्दर्भे बहुलम् इत्यस्य विकल्पेन इति अर्थः गृह्यते। तृतीयसप्तम्योर्बहुलम् इति सूत्रे बहुलग्रहणम् एव सुमद्रम्। उन्मत्तगङ्गम् इत्यादौ सप्तम्योः नित्यम् अम्भावः अस्तु। अर्थात् तृतीयसप्तम्योर्बहुलम् इति सूत्रे बहुलम् इति शब्दस्य प्रयोगः भवति कुत्रचित् यथा अत्र, नाम कुत्रचित् विकल्पेन अमाभावः भवति, कुत्रचित् नित्यं भवति। यदि विकल्पः इति एव इष्यते तर्हि वा शब्दस्य पाठः अभविष्यत्। अस्मिन् सूत्रे विशिष्टार्थः इष्टः, अतः एव बहुलम् इति शब्दस्य प्रयोगः कृतः। मद्राणां समृद्धिः सुमद्रम्, अत्रापि नित्यम् अम्भावः भवति। उन्मत्तगङ्गा यस्मिन्, उन्मत्तगङ्गम्, अत्रापि नित्यम् अम्भावः भवति। अस्तु, अत्र यदा वयं चर्चितवन्तः बहुलम् इति पदं किमर्थं पाणिनिमहर्षिणा सूत्रे उपयुक्तम् इत्युक्ते तत्र विकल्पेन कुत्रचित् अमादेशः भवति, कुत्रचित् नित्यरूपेण भवति। नित्यरूपेण इत्युक्ते सर्वदा भवति, तस्य भिन्नरूपं न भवितुम् अर्हति इत्यर्थः। तृतीयसप्तम्योर्बहुलम् तस्य बहुलपद पदस्य प्रयोगः कुत्र भवति इत्युक्ते उदाहरणद्वयम् अस्ति तदर्थं सुमद्रम् इति पदम् अस्ति उन्मत्तगङ्गम् इति अत्र नित्यरूपेण अम् आदेशः आयाति यदा नित्यरूपेण न आगच्छति चेत् तदा विभक्तिरूपमेव भवति उन्मत्तगङ्गे इति स्यात् तादृशं नास्ति नित्यरूपेण उन्मत्तगङ्गम् उन्मत् सुमद्रं सुमद्रे इति न भवति सुमद्रम् एव शुद्धप्रयोगः भवति अत इति एतत् सूचनार्थमेव पाणिनिमहर्षिणा तत्र सूत्रे बहुलम् इति पदं प्रयुज्यते सुमद्रम् इत्युक्ते मन्त्राणां समृद्धिः अत्र नित्यरूपेण वा उन्मत्तगङ्गम् इत्युक्ते उन्मत्तगङ्गा यस्मिन् उन्मत्तगङ्गम् अत्रापि नित्यरूपेण भवति भगिनि मम प्रश्नः अस्ति तत्र उन्मत्तगङ्गम् इति पदे अव्ययं किम् इति अवगच्छामि यस्मिन् अधि इति यस्मिन् इति सप्तमी विभक्तिः अस्ति खलु भगिनि
किञ्चित् अत्र उन्मत्ता इत्युक्ते उद्धृता इति अर्थः उन्मत्ता गङ्गा यस्मिन् इत्युक्ते यस्मिन् देशे गङ्गा उन्मत्ता अस्ति सः देशः देशस्य नाम भवितुमर्हति इति लिखितमस्ति तत्र उन्मत्तगङ्गम् इति उन्मत्ता गङ्गा यस्मिन् देशे अपि च अन्यत् पदमपि अस्ति लोहितगङ्गं शनैर्गङ्गं तत्र अम्भावः नित्यरूपेण भवति इति कृत्वा विकल्पेन द्वितीयं रूपं न सिद्ध्यति अत्र किन्तु अत्र अधिकोपम् अव्ययीभावसमासः एव किन्तु अत्र अहं किञ्चित् दृष्टवती अतः वदामि अन्यपदार्थे च संज्ञायाम् इति अन्तिमं सूत्रमस्ति तेन सूत्रेण अपि च अत्र नदीभिश्च इति एकम् अन्यत् सूत्रमपि अस्ति इत्युक्ते इतोपि वयं पठामश्चेत् अवगन्तुं शक्नुमः केन सूत्रेण अस्मिन् पदे अव्ययीभावसमासः भवति इति किन्तु अहं किं पठितवती इत्युक्ते उन्मत्तगङ्गम् इत्यस्मिन् पदे पूर्वपदार्थप्राधान्यं नास्ति तदर्थमेव सर्वदा प्रायेण पूर्वपदार्थप्रधानः अव्ययीभावः इति वक्तव्यं किमर्थं चेत् अत्र उन्मत्तगङ्गम् इत्यस्मिन् पदे अन्यपदार्थप्राधान्यमस्ति कथम् इत्युक्ते उन्मत्ता गङ्गा यस्मिन् कुत्र अन्यपदार्थप्राधान्यं दृश्यते बहुव्रीहिसमासे एव अन्यपदार्थप्राधान्यं द्रष्टुं शक्नुमः किन्तु इदं पदम् अव्ययीभावसमासयुक्तं पदं किन्तु अत्र अन्यपदार्थप्राधान्यमस्ति अन्यपदार्थे च संज्ञायाम् इति सूत्रेण भवति अपि च अम्भावः अधिगोपम् इत्यस्मिन् पदे विकल्पेन भवति किन्तु सुमद्रम् उन्मत्तगङ्गम् एतेषु अनयोः पदयोः विकल्पेन न भवति नित्यरूपेण अम्भावः भवति इति विषयः धन्यवादः महोदय अनन्तरम् उपरि अत्र पुष्पा भगिनी भवती पठतु
एकनिमिष
पञ्चमी विभक्तौ सुप्लुक् न भवति नो चेत् अत्र उषा भगिनी भवती पठतु अस्ति वा उषा भगिनी
या भगिनी नमस्कार भगिनि श्रूयते वा भगिनि पञ्चमी
पठतु
पञ्चमी विभक्तौ सुप् लुक् न भवति इति उक्तं न अव्ययीभावोत् भावात् अतोन्त्वपञ्चम्याः इति सूत्रेण तर्हि प्रक्रिया अधोभागे प्रदर्शिता अधिगोपयोगः ङसि टाङसि ङसामिना स्याः इत्यनेन सूत्रेण अदन्तात् अङ्गात् परस्य टा ङसि ङस् च प्रत्ययानां स्थाने क्रमेण इन आत् स्य इत्येते आदेशाः भवन्ति. अतः पञ्चमी विभक्तौ अदन्तात् अङ्गात् ङसि इत्यस्य स्थाने आत् इति आदेशः भवति. टाङ्गसि ङसामिनात् स्याः इति सूत्रेण तृतीया विभक्तौ प्रत्यये टा टा इन् द प्लेस् आफ् टा इन इति सूत्रे
एकवचनप्रत्ययः
टा अस्ति. ङसि पञ्चमी विभक्तौ प्रत्यये एकवचनप्रत्यये ङसि इति अस्ति. ङस् इति षष्ठीविभक्तिः. सो दे स्थाने क्रमेण इन थर्ड् केस् तृतीया आत् पञ्चमी एण्ड् स्य सिक्स्त् केस् षष्ठीविभक्ति आदेशः भवन्ति. पञ्चमी विभक्तौ अदन्तात् अङ्गात् इति इत्यस्य स्थाने आत् इति आदेशः भवति. सो अधिगोपयोगः आत् अकः सवर्णे दि अकः सवर्णदीर्घे इति सूत्रस्य कार्य अनन्तरम् अधिगोपात् इति रूपं निष्पन्नं भवति. अधिगोपः योगः आत् अकसवर्णदीर्घः प अकारायोगः आत् सवर्णदीर्घ आ इति निष्पन्नं भवति. सो आत् अधिगोपात्
एतावता अत्र किं लिखितमस्ति ना व्ययीभावाद् अतोऽन्त्वपञ्चम्याः इति सूत्रेण पञ्चमीविभक्त्यां सुप्लुक् न भवति. अपि च ता नसि नसाम् इनन् इनात् स्याः तत्र टा इति तृतीयाविभक्ति एकवचनप्रत्ययः, नसि इति पञ्चमीविभक्ति एकवचनप्रत्ययः, षष्ठीविभक्ति एकवचनप्रत्ययः नस् अस्ति. एतेषां त्रयाणां स्थाने इन आत् स्या एते आदेशाः भवन्ति. साधारणतया अत्र रामशब्दं पठामश्चेत् रामेण रामात् रामस्य एतादृशानि पदानि वयं साधयितुम् इच्छामश्चेत् तदा अपि एतदेव कार्यं भवति. तत्र तृतीयाविभक्ति एकवचनप्रत्ययः टा अनेन सूत्रेण एव टा नसि नसाम् इनात् स्याः. अत्र केवलम् अत्र किमपि नास्ति, सर्वे प्रत्यया सर्वान् प्रत्ययान् एकत्र योजयित्वा लिखितमस्ति. टा नसि नसाम् इति तेषां स्थाने इन आत् स्या एते आदेशाः भवन्ति इति कृत्वा तत्र राम इति पदस्यापि रामेण इति पदम् इन आदेशः भवति तत्र तृतीयाविभक्त्यां. तथा एव आत् नसि प्रत्ययस्य स्थाने आत् आदेशः भवति इति कृत्वा रामात्. अपि च नस् स्थाने स्या आदेशः भवति इति कृत्वा रामस्य इति पदं सिद्ध्यति. तथा एव अत्रापि कार्यं भवति. इत्युक्ते अत्र पञ्चमीविभक्त्याम् एकमेव रूपं सिद्ध्यति. तत्र अधिगोपात् इति पदं कथं सिद्ध्यति इति तत्र टानसिनसाम् इनात् स्याः सूत्रस्य प्रसक्तिः अस्ति. अपि च अकः सवर्णे दीर्घः इति सूत्रेण तत्र द्वयोः स्थाने अकारः आदेशः भवति इति कृत्वा अधिगोपात् इति पदं सिद्ध्यति. उत्तमं भगिनि, रूपाणि पठतु एकवारं सर्वासु विभक्तिषु.
अधिगोपम् 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 तृतीय अधिगोपम् अधिगोपेन द्वयोः द्विवचनम् अधिगोपम् अधिगोपाभ्याम् अधिगोपम् अधिगोपै अधिगोपैः चतुर्थी अधिगोपम् 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 पञ्चमी अधिगोपात् अधिगोपाभ्याम् अधिगोपेभ्यः षष्ठी अधिगोपम् 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 सप्तमी अधिगोपम् अधिगोपे द्वयोः रूपं द्विवचनम् अधिगोपम् अधिगोपयोः बहुवचनम् अधिगोपम् अधिगोपेषु सम्बोधने अधिगोपम् अधिगोपम् अधिगोपम्.
उत्तमम्. इत्युक्ते अत्र अधिगोपम् इति पदस्य रूपाणि, अत्र पदम् अव्ययीभावयुक्तं पदम् अदन्तम् अस्ति इति कृत्वा एतादृशानि रूपाणि सिद्ध्यन्ति, किन्तु अदन्तं नास्ति चेत् अधिहरि इव रूपाणि लेखनीयानि.
अक् अक् वर्णात् सम्बन्धि अच् परः चेत् पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशः भवति. अमि सप्तम्यन्तं पूर्वः प्रथमान्तं द्विपदमिदं सूत्रम् अकः सवर्णे दीर्घः इत्यस्मात् सूत्रात् अकः इत्यस्य अनुवृत्तिः. एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः इकोणचि इत्यस्मात् सूत्रात् अचि इत्यस्य अनुवृत्तिः. यस्मिन् विधिस्तदन्तस्य न यस्मिन् विधिस्तदा पल्ग्रहणे वार्तिकसूत्रम् इत्यनेन अचि अमि इत्युक्तौ अजादि अमि अनुवृत्ति सहितसूत्रम् अकः अचि अमि पूर्वपरयोः एकः पूर्वः संहितायाम् अस्तु. अत्र अमि पूर्वः इति सूत्रं वदति अक् वर्णात् अम् सम्बन्धि अच् परः अस्ति चेत् पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशः भवति.
अक्किति एकः प्रत्याहारः. अक् प्रत्याहारस्थवर्णस्य परे अम् सम्बन्धि अच् वर्णः. अम् सम्बन्धि अच् वर्णः इति मुख्यविषयः अत्र. अम् सम्बन्धि तत्र अच् वर्णः अस्ति चेत् द्वयोः स्थाने पूर्वरूपम् एकादेशः भवति कृत्वा अत्र अधिकोपयोगः अम् इति वदामश्चेत् तत्र पूर्वरूपादेशं भूत्वा पूर्वरूपादेशः भूत्वा तत्र अधिगोपम् इति रूपं सिद्ध्यति. अपि च एतावत्पर्यन्तम् अस्माभिः किञ्चित् पठितम् अत्र सारांशरूपेण अदन्तमस्ति चेत् किं भवति इति एतावत्पर्यन्तं वयं पठितवन्तः. किन्तु अत्र उत्तरपदम् अजन्तम् अस्ति चेत् अदन्तम् भिन्नम् इत्युक्ते केवलं ह्रस्व अकारान्तं पदम् अजन्तम् अस्ति चेत् उत्तरपदम् एतादृशानि कार्याणि भवन्ति. अत्र सारांशरूपेण त्रीणि वाक्यानि लिखितवती. पठतु भगिनि.
अव्ययीभावसमासस्य नियमाः. यत्र उत्तरपदम् अजन्तं ह्रस्वो नपुंसके प्रातिपदिकस्य इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य ह्रस्वः भवति. द्वितीयम् अदन्तम् अङ्गम् अस्ति चेत् अन्ययीभावात् पञ्चम्याः इत्यनेन अदन्तात् अव्ययीभावात् सुप् प्रत्ययस्य लुक् न भवति. अपि च पञ्चमी विभक्तिं विहाय अन्यासां विभक्तीनां स्थाने अम् आदेशः विधीयते. तृतीय तु अदन्तम् अङ्गं चेत् तृतीयाविभक्तौ सप्तमीविभक्तौ च अम् आदेशः विकल्पेन भवति तृतीयसप्तम्योर्बहुलम् इति सूत्रेण. त्रीणि सूत्राणि सन्ति. ते ह्रस्वो नपुंसके प्रातिपदिकस्य इत्यनेन अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य ह्रस्वः भवति. अदन्तम् अङ्गम् अस्ति चेत् नान्यव्ययीभावात् पञ्चम्याः इत्यनेन अदन्तात् अविभावात् सुप् प्रत्ययस्य लुक् न भवति. अत्र अपि च पञ्चमीविभक्तिं विहाय
सर्वे अन्यासां विभक्तीनां विषये स्थाने अम् आदेशः विधीयते. तद् वयं अधिकोपम् अधिकोपम् इति सर्वे अस्ति तद् दृष्टं. तृतीय अस्ति अदन्तम् अङ्गं चेत् तृतीयविभक्तौ सप्तमविभक्तौ च अम् आदेशः विकल्पेन भवति. तृतीयसप्तम्योर्बहुलम् इति सूत्रेण.
उत्तमम्. इत्युक्ते एतावता उत्तरपदम् अजन्तमस्ति चेदेव एतानि कार्याणि भवन्ति. उत्तरपदम् अजन्तम् अस्ति चेत् अत्र उदाहरणार्थम् अधोभागे अत्र पञ्चपदानि अभ्यासार्थं लिखितवती भगिनी. अत्र उत्तरपदम् एतानि सर्वाणि पदानि एतेषु सर्वेषु पदेषु उत्तरपदम् अजन्तमेव. अजन्तपदम् अस्ति चेत् अजन्तपदम् अपि च उत्तरपदं दीर्घ आकारान्तं वा दीर्घ ईकारान्तं वा अस्ति चेत् तत्र ह्रस्वनौपुंसके प्रातिपदिकस्य इति सूत्रस्य प्रसक्तिः अस्ति. यथा उपनदी नदी इति पदं दीर्घ ईकारान्तपदम् अस्ति, तत्र ह्रस्वनौपुंसके प्रातिपदिकस्य. अपि च अधिगोपा गोपा तत्र पदं उत्तरपदम् आकारान्तपदम् अस्ति चेत् तत्रापि अनेन सूत्रेण ह्रस्वत्वं भवति. अधिशालम् इत्यस्मिन् पदे शाला इति दीर्घ आकारान्तपदमस्ति, तत्रापि ह्रस्वनौपुंसके प्रातिपदिकस्य तस्य प्रसक्तिः अस्ति. अपि च
नौकायां
अनन्तरं तत् एकवारं तत्र ह्रस्वत्वं भवति चेत् तत्पदम् अदन्तं भवति चेत् तत्र नाव्ययीभावादत्वन्त्वपञ्चम्याः तृतीया सप्तम्योर्बहुलम् एताभ्यां द्वाभ्यां सूत्राभ्यां कार्याणि भवन्ति. एतत् सर्वं वयं जानीमः एव. किन्तु अत्र उपरितने परिच्छेदे क्वचित् इति लिखितम् अस्ति. क्वचित् इत्युक्ते कुत्रचित् इति अर्थः. बहुलम् इत्युक्ते कुत्रचित् प्रवृत्तिः, कुत्रचित् अप्रवृत्तिः, कुत्रचित् विभाषा, कुत्रचित् अन्यत् कार्यम् इत्युक्ते बहुलम् इति कथनेन कुत्रचित् अम्भावः भवति नित्यरूपेण, कुत्रचित् अम्भावः न भवति एव, कुत्रचित् विकल्पेन भवति, कुत्रचित् अन्यत् कार्यं भवति. तदर्थमेव अत्र बहुलम् इति पदं सूत्रे उक्तमस्ति इति उपरि दत्तमस्ति. अपि च अत्र अस्माकं कृते अभ्यासार्थं पञ्चपदानि दत्तानि. शर्मिला भगिनी प्रथमं पदं स्वीकृत्य अलौकिकविग्रहवाक्यं लिखित्वा समस्तपदं वदतु. उक्त्वा वृक्षे इति भगिनि अस्ति वा शर्मिला भगिनि?
आं भगिनि
वदतु.
क्षम्यतां. वृक्षे इति वृक्षयोगः नसि योगः अधि अधि वृक्षम्
नसि भवति वा किं भवति अत्र वृक्षे इति नी भवति सप्तमी विभक्ति एकवचनप्रत्ययः नी भवति. अत्र समस्तपदं किं भवति
अधिवृक्षम्
अत्र
अदन्त अस्ति अतः अम् आदेशः भवति. तदनन्तरं पञ्चमी विभक्तौ तु अधिवृक्षात् भवति. तृतीय च सप्तमी विभक्तौ तु बहुलम् अधिवृक्षेण अधिवृक्षम् अधिवृक्षे अधिवृक्षं भवति.
इत्युक्ते एतावता अत्र ह्रस्वनपुंसके प्रातिपदिकस्य इति सूत्रस्य प्रसक्तिः अस्मिन् अत्र प्रक्रियायां तस्य आवश्यकता नास्ति. अधिवृक्षम् इति पदस्य यद्यपि तत्र प्रसक्तिः अस्ति प्राप्तिः अस्ति किन्तु परिवर्तनं नास्ति इति चिन्तनीयं. पुनः तदेव चिन्तनीयं. क्षम्यतां. द्वितीयं पदं पठतु.
शालायाम् इति शालायोगः नियोगः इति अधिशाला तदनन्तरं ह्रस्वो नपुंसके इत्यनेन अधिशाल भवति, पुनः अदन्तम् अस्ति अतः अधिशालम् इति समस्तपदम्।
समस्तपदम् उत्तमम्। तृतीयं पदम्
नौकायाम् इति नौकायोगः योगः इति, पुनः अत्र अधिनौका ह्रस्वो नपुंसके इत्यनेन अधिनौक अधिनौकं भवति समस्तपदम्।
उत्तमं, धन्यवादः भगिनी। अनन्तरम् अरविन्द महोदय, भवान् करोतु अग्रिमपदम्।
आकाशे इति तत् आकाश योग नियोग अति उपसर्जनं पूर्वं अति आकाश ह्रस्वनपुंसके प्रातिपदिकचिह्ने आकाश ह्रस्वत्वम् अत्र नास्ति चेदपि ह्रस्वत्वस्य अधिकार भवति। तदनन्तरं न व्ययीभावात् सूत्रेण अमादेशः भवति आकाशम् अति आकाशम्
अध्याकाशम् अध्याकाशम् इति पदं सिद्ध्यति। अत्र आकाश इति पदम् अजन्तपदम् अथवा अदन्तपदम् इति वक्तुं शक्नुमः। अत्र ह्रस्वनपुंसके प्रातिपदिकस्य सूत्रस्य प्रसक्तिः अस्ति चेदपि परिवर्तनं न दृश्यते। अत्र सन्धिकार्यमपि भवति, यण् सन्धेः कार्यं भवति। अधियोगः आकाशम् अध्याकाशम् इति यण् सन्धेः प्रसक्तिः अपि अत्र अस्ति। अन्तिमं पदं पठतु करोतु। रमायाम् इति अस्ति वा महोदय?
आम् इण्टर्नेट् अति योग आकाशः भवति, तदनन्तरम् अति आकाव्ययीभावात् अतो त्वा पञ्चम्या इति सूत्रेण अमादेशः भवति पञ्चम्ये विवाहाय अति आकाशम् इति रूपं भवति। तृतीया सप्तमी विकल्पेन भवति आम् अति आकाशम् अति आकाशेन इति रूपद्वयं भवति।
उत्तमम्। तृतीयविभक्त्यां सप्तमीविभक्त्यां रूपद्वयं, किन्तु पञ्चमीविभक्त्याम् एकमेव रूपम् अध्याकाशात् इति रूपम्। अन्तिमं पदं रमायाम् इति करोतु।
रमायाम् इति रमाय रमा योग अति निरतयोग नियोग अति तदनन्तरं भवति अधियोगः रमा दीर्घ आकार अन्तमस्ति कृत्वा ह्रस्वो नपुंसकपातिपदिकस्य सूत्रेण दीर्घ आकारस्य ह्रस्वत्वं भवति इति कृत्वा अधिरमा इति भवति। तदनन्तरम् अदन्तमस्ति इति कृत्वा न व्ययीभावः तत् पञ्चम्य सूत्रेण अधिरम् इति भवति। पञ्चमी विहाय अतिरमात् इति भवति पञ्चमी। तदनन्तरं तृतीयसप्तमी विकल्पेन अतिरमम् अतिरमेण
तत्र णत्वमपि भवति इति भाति
रमेण
तथा भवति। उत्तमं महोदय, एतावत् वयं समीचीनतया चिन्तनं कृतवन्तः। अग्रिमं पदमस्ति अध्यात्मम्। अध्यात्मम् इति पदस्य प्रसङ्गे अग्रिमे सप्ताहे वयं चर्चयिष्यामः। तस्मिन् प्रसङ्गे वयम् एकम् अत्र अध्यात्मम् इत्यस्मिन् पदे टच् इति समासान्तप्रत्ययः विधीयते नपुंसकादन्यतरस्याम् इति सूत्रेण समासान्तप्रत्ययः विधीयते, अपि च नप्तधिते इति एकं नूतनं सूत्रमपि तत्र कार्यं करोति। अत्र अध्यात्मं तत्र उत्तरपदम् आत्मन् इति नकारान्तपदमस्ति, तत्र कीदृशानि कार्याणि भवन्ति इति अस्माभिः ज्ञातव्यं. तस्मिन् प्रसङ्गे अग्रिमे सप्ताहे पुनः एकवारं मिलित्वा चर्चयिष्यामः. सर्वेषां धन्यवादः.
धन्यवादः.
धन्यवादः.